गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनीं अम्बत्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीं नमोऽस्तु ते व्यासविशालबुद्धे फुल्लारविन्दायतपत्रनेत्र येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुं मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवम् धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेतायुयुत्सवः मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय सर्वेभ्यः राम 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 गुरुं गणपतिम् आचार्यान् मातापितरन् सर्वान् नत्वा अद्यतनकक्ष्यां प्रारम्भं कुर्मः प्रथमाध्याये तावत् अर्जुनस्य विषादयोगम् अस्माभिः दृष्टमस्ति विषादः कथं योगत्वेन सम्पन्नः इत्यपि अस्माभिः दृष्टमस्ति हौ डिड् विषाद दुःख बिकम् अ योग बै इट् सेल्फ् वी सा दट् दुःख दोषानुदर्शनम् दुःखजीवी जनरलि हेज् मोर् असिम्युलेशन् टुवर्ड्स् ज्ञान तत्त्व and therefore when the dukkha leads to the jnana marga which finally leads to moksha that dukkha itself becomes a yoga evam dukkha doshanu darshanam tadrsha dukkha dosha doshanu darshanatvat vishada yogah iti iti asmabhi gnyatum shakyate iti asmabhi gnyatum shakyate अनन्तरं पश्यामश्चेत् द्वितीयाध्याये प्रारम्भश्लोके प्रथमतया सञ्जयः धृतराष्ट्रं प्रति वदति मधुसूदनः तादृश कृपया आविष्टं दयया आक्रान्तम् अश्रुपूर्णाकुलेक्षणं बाष्पपूर्णाकुलेक्षणं बाष्पपूर्णनेत्रं विषीदन्तम् अतीव दुःखितम् अर्जुनं प्रति एतादृशं वाक्यम् उवाच इति सञ्जयः प्रथमश्लोके धृतराष्ट्रं प्रति वदति द्वितीयश्लोके तावत् भगवान् पृच्छति अर्जुनं हे अर्जुन अस्मिन् विपत्काले युद्धे मध्ये अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् with these three adjectives he talks about these three adjectives kashmalam kutah tvai samupasthitam how did you get this kind of kashmalam chitta kalushyam kashmalam ityukte chitta kalushyam which is anarya jushtam aswargyam akirtikaram anarya jushtam which will not be followed by aryas sadhavah ye santi arya kind of people tadrasha anarya jushtam aswargyam aswargyam which will not lead you to swarga also and which is not dharma yukta adharmyam iti स्वीकर्तुं शक्यते अकीर्तिकरं यदि वयं पश्यामश्चेत् अयशस्करम् अयशस्करं तादृश कश्मलं कथं समुपस्थितम् इति सः पृच्छति अपि च सः वदति क्लैब्यं त्यज हृदय क्षुद्रं हृदयदौर्बल्यं त्यक्त्वा युद्धं कुरु इति अनन्तरं कृष्ण अर्जुनः पौनःपुण्येन सः पृच्छति कथं तत्र पूजार्हान् हन्मि कथं हन्मि अपि च रुधिरप्रदिग्धान् अर्थकामान् भोगान् नेच्छामि अपि च अहं यदि ते जयेयुः वा वयं जयेम इति न जानीम इति सः उक्त्वा सः अन्ते वदति कार्पण्यदोषोपहतस्वभावः कार्पण्यदोषेण उपहतस्वभावः इदानीमहं धर्मसम्मूढचेताः तत्र धर्माधर्मविवेकरहितः कृत्याकृत्यविवेकरहितः अस्मि इदानीं तदर्थं अहं ते शिष्यत्वेन आगच्छामि तत्र निश्चितं यत् श्रेयः तत् मां ब्रूहि इति सः वदति एवं तत्र पश्यामश्चेत् अहं कार्पण्यदोषोपहतस्वभावः धर्मसम्मूढचेताः यत् निश्चितं श्रेयः तत् ब्रूहि अहं ते शिष्यः त्वां प्रपन्नम् इति वदति सः. अस्माभिः दृष्टमस्ति कथं शिष्यः यावत् शिष्यः गुरुम् उपसर्पति तावत् गुरोः रोल् अपि तत्र भिन्नः भवति इति अस्माभिः गतकक्षासु एतत् सर्वम् अतिविस्तरेण दृष्टमस्ति. In detail we have seen all these in the previous classes. Also what were the two options which Arjuna considered and finally what he decided and why he decided. Therefore he goes through all these thought process. Finally he says, therefore aham na yotsye. Yadi vayam jayema or te jayehu. Two options. Vayam jayema, we follow kshatriya dharma, yuddha. But then it will also lead to kulakshayakritam, dosham mitradrohe cha patakam. And I will only get rudira pradigdan bhogan. I will not get happiness. Sukham sukham nagachati, and finally I'll also get asapatnam riddham rajyam, but that will not remove my indriyanam uchchoshanam shokam, and therefore nayotse he decides. We have seen all this in quite detail in the previous classes. After all this, finally from shloka 211 the main Bhagavad Gita starts. Ashochyan anvashochastvam prajna vadamscha bhashase gatasun agatasumscha nanushochanti panditah. So Arjuna starts from drishtvemam sujanam krishna 128 and he stops finally till here. Therefore kutastva kashmalaminam he asks, and finally again from 211 we are seeing that Bhagavan starts the Gitopadesha. So here we saw that ashochyan, ashochyan yeshu shokah na karaniyah, ye shokam kartum na yogyah ayogyah, ye shokam acharitum ye na yogyah tan prati anvashochah. There are three sentences we saw. Tvam ashochyan anvashochah, tvam prajnyavadan cha bhashase api cha panditaha kim kurvanti, panditaha gatasun agatasumscha na anushochanti. कदापि पंडिताः. पंडिताः, what is the definition of पंडिताः? पंडा आत्मविषया बुद्धिः येषां ते एव पंडिताः, न तु केवलं पेपर डिग्री स्वीकृतवन्तः तेनैव पंडिताः. एवं तत्र के पंडिताः इति अस्माभिः दृष्टमति. अशोच्यान् अन्वशोचः प्रज्ञावादांश्च भाषसे. वि सा वेरियस visheshamshas. A few people have joined back today, so we will just quickly run through these visheshamshas. Tatra kimartham yuddhe tatra gitopadesham kritam anyatrapi kartum shakyate iti prishte sati asthana sneha karunya dharma dharma viyakulam partham prapannam uddishya gitavaranam kritam. Was the karunya what or the sneha what Arjuna got, what was it situationally correct? No. Therefore it is called asthana, unsituational sneha karunya dharma dharma viyakulam. He did not know what is dharma, what is adharma, and in that yuddhakala, which was a very bad situation, to get that vishada or that kripa, the compassion, kripaya avishtah tadrsha partham prati. Again did Krishna by himself go and tell Partha? No. Partham prapannam uddishya gita avataranam kritam. Prapannam shasteham shadimam tvam prapannam. He came. Tadrsha Arjunam pratyeva tatra Krishnaham upadesham kritavan. Evameva we saw various lakshana of guru, and we saw who is a guru and what should be our respect towards guru, and what kind of guru should we approach. We saw all those also in the previous classes. In that again one of the other duties of guru is again unasked free advice should never be given, which is also one of the characteristics or responsibilities of a guru. Only when a shishya comes to him and asks, including the Brahmopadesha, even in an upanayanam when they do the Brahmopadesha, the boy approaches the father and asks, Savitri Gayatri me anubruhi, hey guru. He comes like in the upanayana samskara, if we see when they are doing the yajnopavita dharanam, after that किमपि उदाहरणं हि कम्स् वी हेव् द फस्ट् वी हेव् द चौलकर्म देन् वी हेव् द यज्ञोपवीत धारणम् एण्ड् आफ्टर् दट् द ब्रह्मोपदेश हेपन्स् एण्ड् वैल् द ब्रह्मोपदेश हेपन्स् द बाय् comes to the father and tells hey guru savitri me anubruhi. He asks for it tatra prapannam bhavitavyam. He comes and asks for it. That is when the teacher again asks ko namasi. He tells dash sharma asmi. Then kasya brahmacharyasi jnanasya brahmacharyasmi. He tells and therefore that is how it goes ahead. Evam partham prapannam uddishya geetavartaranam krida prapattirasti तदा शिष्यत्वेन स्वीकर्तुं शक्यते उपदेशोऽपि कर्तुं शक्यते इत्येव सूक्ष्मविचारः अत्र सम्यक् तत्र प्रतिपादितोऽस्ति. Pana Atma Vishaya Buddhihi, we have seen that. Again we saw the similarity between what Hanuman did Upadesha to Tara in Srimad Ramayanam during Valivadha and how this words, even the words which are used are same. Shochya Shochasi Kam Shochyam Deenam Deenanu Kampase Kasya Kovanu Shochyosti Dehe Smin Budbudopame Asmin Budbudopame Dehe Tatra Shochaniyaha Vishayaha Eva Nasti. We saw that and evam tatra hanuman eva asti yaha geetartham sangeetartham api sangeetanandam api yaha janati saha hanuman eva iti hanumatah tatra vishesham asmabhi puram drishtam asti. अपि च अस्य श्लोकाद् आरभ्य अस्मात् श्लोकाद् आरभ्य 211th 1866 पर्यन्तं तत्र सर्वधर्मान् परित्यज्य इति यदागच्छति तत्पर्यन्तं तत्र गीतोपदेशस्य सूक्ष्मविचाराः प्रतिपादिताः सन्ति. We also saw that how we compared the birth and death to a stage in a theatre, wherein in a stage in a theatre we are sitting in the audience, we see that lot of people come and go. Janaha tatra rangamancho agachanti pratinivartante. Tatra yadi vayam pashyamaschete, do we ever start crying because somebody has left the stage and gone to the backstage? We don't do. Tatra tena shochyaha, tatra te ashochyaha. Because we know that they are there, just behind the stage, they are waiting for their next turn to come onto the stage. Therefore, yadi vayam tad vishyam jani maha, if we get to realize that this tatra loke vishve, vishva range yadi vayam pashyamas chete, tatra vishva ranga manchopari janaha agachanti, te jananam swikurvanti, maranam praptvanti, yevameva punarapi jananam, punarapi maranam, punarapi janani jathare shayanam, yevameva bhoti. यदि वयं तत्सर्वं तत्र नित्यानित्यत्व विवेकं स्वीकुर्मः प्राप्नुमः तर्हि तत्र दुःखं तावत् न भवत्येव. Again, as we discussed in the previous classes, we have to know the difference between the body and the self, sharira, shariri, the real versus unreal, what is mortal versus immortal. So when once we get all this, yetadeva sa vidya ya विमुक्तये या विमुक्ति ज्ञानं ददाति सा एव विद्या अन्या सर्वा अपि विद्याः केवलं तत्र मेटीरियलिस्टिक् विद्याः एव इहलोक संबंधि विद्याः एव भवन्ति यत् अन्ते श्रेयस्करी न भविष्यन्ति. एवं अस्माभिः दृष्टमस्ति. अपि च अस्माभिः अन्यत् पर्स्पेक्टिव् मध्ये अपि दृष्टमस्ति. ये जनाः jeevantah santi, those people who are living, all the living souls, we should never grieve for them because they are to be respected, cared, adored and should be taken care of. And also even the departed souls, we saw that in some of the Puranas and in the places it has been mentioned that when we cry for the departed souls, they have to eat and drink the tears and phlegm what comes out of our shoka. So therefore it is not wise that we cry for them. We rather do the antyakriya and pray for their mukti only, so that those prayers will strengthen them and they rather attain the mukti rather than come to the cycle of birth and death. Therefore also yete ashochyaha eva iti asmabhi tatra samarthanam kartum shakyate. अगेन वी सा दट श्रीमद्भागवत महापुराणे द्वादशस्कंदे पंचमाध्याये कथम ब्रह्मोपदेश वन ऑफ द स्मॉलेस्ट अध्यायास इन श्रीमद्भागवत फिफ्थ चैप्टर ऑफ ट्वेल्थ स्कंध वी हैव द ब्रह्मोपदेश व्हेनेवर यू गेट टाइम प्लीज रन थ्रू दट इन दट फ्रॉम द सेकंड श्लोक शुक मुनि डायरेक्टली टेल्स परीक्षित ही ट्राइज टू समराइज द ब्रह्मोपदेश एंड सेज त्वंतु राजन मरिष्येति पशुबुद्धिमिमं त्यजि तत्र जहि त्यज तत् पशुबुद्धिमिमं त्यज जहि यतः न जातः प्रागभूतोद्य देहवत्त्वं न कांक्षसि न नंक्षसि सो ही टेल्स अबाउट द बुद्धबुद्धत्व एंड ही एक्सप्लेन्स द इफ यू थिंक दैट देयर इज अ डेथ इट इज अ पशुबुद्धि इट इज नॉट अ पंडित बुद्धि दैट इज व्हाट ही एक्सप्लेन्स एवं अस्माभिः अशोच्यानन्वशोचः इति तत्र एकादश श्लोकस्य अर्थावगमनं कृतम् कमिंग टू श्लोक नंबर 12 यदि पश्यामश्चेत् नत्वेवाहं जातुनासं नत्वं नेमे जनाधिपाः न चैव न भविष्यामः सर्वे वयमतः परम् अगेन अ वेरी वेरी सिंपल श्लोक वी सॉ देयर आर अराउंड फोर सेंटेंसेस वी कैन फॉर्म तत्र अहं जातु न तु एव न आसम् इट वाज नॉट दैट आई डिड नॉट एवर एग्जिस्ट अहं न आसम् सो फर्स्ट दिस थिंग अहं न आसम् इति न First sentence. Second sentence, Tvam tu na asihi. If we take prayer plainly, Tvam tu nasihi, Tvam tu nasihi iti na. Api cha third sentence, Ime janadipaha api na asan iti na. Ataf param, Sarve vayam, bhavishya, sarve vayam, sarvada, bhavishyamaha eva. Sarve vayam, sarvada, bhavishyamaha eva. So taking in one sense it is not, you were not there before I was not there before they were not there before and we will always live or taking it in the positive way we saw both ways how to understand this it is that aham sarvada asam tvam sarvada asihi yete rajanah api sarvada asan itah paramapi vayam sarve bhavishyamah evam we always are there आत्मा स्थिरः इति वयं सर्वे सर्वदा अवश्यं भवामः इत्येव अभिप्रायः अगेन वेरी वेरी सिंपल श्लोक टू अंडरस्टैंड अर्थ पदार्थ ज्ञाने ज्ञानार्थं श्लोकाः अतीव सरलः सन्ति परं तत्त्वार्थं ज्ञातुं इंप्लिमेंट कर्तुं जीवने अतीव क्लिष्टं अतीव गाढं भविष्यति अगेन एवं वेरी सिंपल श्लोक there are two negatives if we see here to just understand it again there are two negatives it is not that I did not ever exist aham jatu na asam iti na tvam tu na asihi iti na it was not that I was not there it is not that you were not there it is not that these janadipaha were also not there and from now also in future it is not that we are not going to be there we will always be That is the main understanding of this shloka. Hope it was not confusing again. Therefore, which means that we have lived before, we are living, and we will live before. Therefore, what is the visheshamsha visa? Past, present, future. You, me, these kings. And if we see, he kind of tries to put this in all the three dimensions and finally brings out the difference of body versus soul. If you talk about the Atma, it has always been there. If you talk about the body, it is never there because it is only an illusion. If you say that I am going to go to a mirage and drink water, it is as good as that the body is there, it is present, which is what we are trying to tell here. Again, one more visheshamsha yadi vayam pashyamaschete, asmin shloke krishnah aham jatu na asamitina. Tvam na asihi itina. So he is kind of identifying himself along with Krishna, along with Arjuna, along with the other kings itself. But then as he goes step by step in 4.5, if we see in 4th chapter, 5th shloka, if we see, he says, Bahuni me vyatitani janmani tavacharjuna. तान्यहं वेद सर्वाणि नत्वं वेत्थ परंतप सो ही सेज मे बहूनि जन्मानि व्यतीतानि तवापि बहूनि जन्मानि व्यतीतानि so therefore both of us are same. We have gone through so many janmas, our atma is same. He also tries to identify himself with Arjuna and Janadipaha and tries to make the indifference between Jivatma and Paramatma. But later on in 4.5 he clearly says that I have the knowledge about all my previous birth and my future births, but you do not have that knowledge. Therefore, try to realize that knowledge and try to trust in what I am telling. Therefore, hey Arjuna, tatra swadharmacharanam jnanam prapya tava karyam kuru. You are only a nimitta matram, which is where he takes it towards slowly from this shloka. Evam tatra visheshamsham drashtum shakyate. Again, one of the very good concept to explain. A very good concept, if we see, which is generally explained for this shloka, is about a tatra gold chain. Yadi asti tatra hiranyena krita mala bhavishyati. If we take that chain and then make it into a bracelet, then it becomes a little bit round, it becomes in a smaller size and it is worn in the hand. Then if we make it a little bit flat and make it as a pendant, we wear it in our neck. And then if we just cut it, make it into a round and wear it in our finger, it becomes a ring. Then you have, when we make it more flatter and put it on the head, it becomes mukuta and an odhyana. Evameva, if we see, there are various forms which are taken. Tatra nama rupa bhedaha santi sarvada. The lot of students tatra Vedanta patakaha santi evam, it will be easy for you to understand. People who are studying Vedanta are also there in the class, so it will be easy for you to understand and recognize the words which are being used. Tatra nama rupa bhedaha santi param tatra yat antaryamitvamasti yat atma visheha asti yat tatra atra hiranyam yadasti tatra bhedaha navartate. A chain, bracelet, all these may have differences in name and in form, in purpose. Similarly to that, we have the differences of body, sharira, gender, difference of name, purpose, height, weight, all these differences may be there to the body, but the jiva which is there inside, the dehi, the shariri who is there inside, never changes. It is always constant. It is the atmasvarupa. Therefore, when we realize that, then we know the value of it. So whatever we make out of these, the value does not decrease. The gold hiranyatvam does not change. Therefore, tatra, this can explain very clearly, aham sarvada asam, tvam sarvada asihi, yete rajanaha. So either Krishna or Arjuna or rajanaha, all these are various only chain, bracelet, pendant, ring, and they are always there. The gold which is there in that is always present. Therefore, we can understand this shloka through this concept better. Agre gachamaha yetadapi asmabhi tatra kevalam shlokam tatra anvayam api drishtamasti ekavaram shigram pashyamaha trayodasha shlokasya bhavam ekavaram pashyamaha. Dehino sminyatha dehe kaumaram yauvanam jara tatha dehantara praptihi dhirastatra na muhyati. Saralam anvayam tavat dhiraha na muhyati tavadeva. Dhiraha na muhyati. Dhiraha, a dhira person, does not get disturbed. He does not feel sorrow. Saha tatra moham va dukham na vindati. Dhiraha na muhyati. Kutra na muhyati, tatra na muhyati. Tatra ityukte kutra, yatra. Saha janati deha dehinaha bhedaha yatra janati tatra na muhyati. Dehi is dehaha asya astiti dehi, which is atma. Deha is body, dehi is atma. Sharira is body, shariri is atma. So that we have to know those terms and always remember that and not get confused. Dehi, so when dhira is a person who knows the difference between deha and dehi, once he knows the difference, tatra sahana muhyati. Because dehi, what dehi takes is, through the deha, dehi takes the various forms of kaumara, yauvanam, jara, first birth. Second, again second birth, dehantara prapti, second birth, again kaumaram, yauvanam, jara, third birth again kaumaram yavanam jara then again maranam bhavati, of course maranam also comes. Therefore when these keeps happening and the dehi is constant and the dhira is a person who starts seeing the dehi and not seeing the deha, then he will not even feel sorrow, because the dehi is the atma is always there. It is similar to our gold concept, wherein the gold is always there with us. Just because a pendant became a chain or bracelet, we will not feel that we have lost the gold. So therefore, of course, some people who prefer a pendant to this thing, then again, tatra dehitvam jnanam nasti. They don't see it as gold, they see it more of the form only. That is when they get sorrow. Evam tatra te tatra dukham anubhavanti. Agre gachhamah. Shlokartham ekavaram pashyamah. Yatha dehinah asminne dehe kaumaram yauvanam jara. तथा देहांतरप्राप्तिरपि कौमारं यौवनं जरा भविष्यति एवं धीरः तस्मिन् विषये नैव शोचति नैव मुह्यति. He does not get deluded at all. Hope it was not too fast and too confusing. Please let me know if any part needs to be repeated. विषयस्तावत् अतीव सरलः. Again, the difference between देहा देही, real unreal, nitya nitya vivekatvam, which is a part of our sadhana chatushtayam. We will see that in detail probably later. Atmanah kaumaram yauvanam jara cha etat evam avasthaha yata bhavanti tata dehantara praptirapi bhavishyati. So an atma which takes kaumara yauvanam jara also attains a dehantara prapti. Therefore, aviveki tasmin moham na gacchati. Tadeva tatparyam asmabhi drashtum shakyate. Dehinaha asminne, if we see, dehinaha asminne visarga refa ukara guna pururupa sandayaha bhavishyanti visargaha refatvena sakaratvena anantaram refatvena ukaratvena parinamate. Ukaraha yada bhavati au guna sandhi bhavati anantaram pururupa sandhirapi bhavati. देहांतर प्राप्ति ही धीरह धीरह तत्र विसर्गरेफ विसर्ग सकारादेश प्राप्तिर धीरह धीरस तत्र एवं देहिनः देहि देहः अस्य अस्ति इति अस्मिन् वा अस्ति इति मतु प्रत्ययः मतुबर्थे तस्य देहः अस्य अस्मिन् वा अस्ति इति देहः अस्य अस्ति इति तत्र इनि भवति देहि दण्डः अस्य अस्ति इति दण्डी एवं यथा फॉर्म्स भविष्यन्ति तथा एव देहः अस्य वा अस्मिन् अस्ति इति देहि इस द तद्धित प्रत्यय कौमारं कुमारस्य भावः कौमारः अनुप्रत्ययः भावार्थकतद्धितः युवनः यूनः भावः युवन शब्दस्य यूनः भावः भावार्थकतद्धितः अनुप्रत्ययस्य उपयोगः यौवनं कौमारं यौवनं तद्धितान्त शब्दाः. सो दीस आर द ग्रामेटिकल पार्ट्स ऑफ द श्लोक. देहि कौमारं यौवनं तत्र विशेषांशान् पश्यामश्चेत् अगेन् वी हैव सीन दट देहि इन दिस बर्थ अगेन इट टाइटल्स कौमारं यौवनं जरा अगेन इट टेक्स अगेन तथा एव देहांतर प्राप्ति भवति अगेन इन द नेक्स्ट बर्थ कौमारं यौवनं जरा. देयरफॉर देहि इज अनअफेक्टेड चेंजलेस. देयरफॉर धीरः पंडितः यः अस्ति धीरः पंडितः ऑल आत्मविषया बुद्धिः यस्य अस्ति सः धीरः यः नित्यानित्य वस्तु विवेकत्वं प्राप्तवान अस्ति सह धीरः. वन हु नोस व्हाट इज रियल व्हाट इज अनरियल मॉर्टल अमॉर्टल ही इज अ धीरा नॉट अ पर्सन हु कैन टेक अ शस्त्र और अस्त्र एंड फाइट. ही इज नॉट अ धीरा इन दीज टर्म्स. तत्र वाई इज द वर्ड तत्र यूज्ड धीरः तत्र न मुह्यति यत्र ज्ञानम सह प्राप्नोति तत्र तादृश अवस्थायां सह न मुह्यति. वन्स ही गेट्स दट ज्ञान वन ही गेट्स टू दट सिचुएशन तत्र सह न मुह्यति धीरः. अगेन एज वी गो फर्दर वी गेट लॉट ऑफ वर्ड्स फॉर धीरा. वन ऑफ द वर्ड्स विल बी गुणातीत. देयरफॉर ही सीज बियॉन्ड सत्व रजस तमस ही गोस टू अ गुणातीत एंड देन ही रियलाइजेस बियॉन्ड दिस दैट इज वेन ही बिकम्स अ धीरा. agre tat drashtum shakyate. Only giving a link to all these words so that when we again see the word gunatita later on, we will be able to connect this dhira to that. Agre gachhamah chaturdasha shlokah adyatana shlokah pashyamah idanim. Ekavaram shlokam vadami sarve anuvadantu. Matrasparshastu kaunteya shitoshna sukha dukhadaha agama payino nityaha tam stitikshasva bharata. శ్లోకం ద్వివారం పంతు మాత్రా స్పర్శాస్తు కౌంతేయ శీతోష్ణ సుఖ దుఃఖదాః ఆగమాపాయినో నిత్యాః తాన్ తితిస్వ భారత. పదచ్ఛేదం పశ్యామః. కర్తృకర్మ క్రియాన్వేషణం కుర్వంతు వదంతు. మాత్రా స్పర్శాః తు కౌంతేయ హే కౌంతేయ శీత ఉష్ణ సుఖ దుఃఖదాః ఆగమాపాయినః అనిత్యాః ఏతే సంతి తాన్ తితిక్షస్వ హే భారత. కర్తృకర్మక్రియ త్వం తితిక్షస్వ. వాట్ తితిక్షస్వ? కాన్ తితిక్షస్వ? కరెక్ట్, త్వం తితిక్షస్వ సమ్యగస్తి. హే కౌంతేయ హే భారత త్వం తితిక్షస్వ. వాట్ తితిక్షస్వ? తాన్. తాన్ కాన్? శీతోష్ణ సుఖ దుఃఖదాః మాత్రాస్పర్శాః ఆగమాపాయినః అనిత్యాః యే సంతి తాన్ తితిక్షస్వ. సమ్యక్, వెరీ గుడ్, సమ్యగస్తి. హే కౌంతేయ, ఫస్ట్ తత్ర వాక్యద్వయం కర్తుం శక్యతే. హే కౌంతేయ మాత్రాస్పర్శాః శీతోష్ణ సుఖ దుఃఖదాః ఆగమాపాయినః అనిత్యాః సంతి. వి కెన్ క్లోజ్ ఆఫ్ ప్రథమం వాక్యం బికాస్ హి హస్ యూస్డ్ టు సంబోధన. వక్తుం శక్యతే. హే కౌంతేయ శీతోష్ణ సుఖ దుఃఖదాః మాత్రాస్పర్శాః ఆగమాపాయినః అనిత్యాః సంతి. వి కెన్ యాడ్. అపి చ సెకండ్ సెంటెన్స్, హే భారత తాన్ తితిక్షస్వ. ప్లీజ్ ఎండ్యూర్ దెమ్. ఎండ్యూరెన్స్, తితిక్షస్వ, ఎండ్యూర్ దెమ్, టాలరేట్ దెమ్, ఫోర్ బేర్ దెమ్, తితిక్షస్వ. వి విల్ సీ ద డీటెయిల్డ్ ఎక్స్ప్లెనేషన్స్ లెటర్ ఆన్. తాన్ తితిక్షస్వ పశ్యామహ ఇదానీ. హే కౌంతేయ, హే కౌంతేయ, హే కుంతీపుత్ర, హే కౌంతే, హే హే అర్జున, హే కుంతీపుత్ర అర్జున, మాత్రాస్పర్శాః యే సంతి. మాత్రాస్పర్శాః, వాట్ ఈస్ మాత్రాస్పర్శాః? విషయ సంయోగాః. ద మాత్రాస్పర్శాః కాంటాక్ట్ ఆఫ్ ఆబ్జెక్ట్స్ అండ్ సెన్సెస్ విచ్ ఇస్ దేర్. మాత్రా ఇత్యుక్తే ఇంద్రియ. టు టేక్ ఇట్ ఇన్ సింపుల్ సెన్స్, మాత్రా ఈక్వల్ టు ఇంద్రియ ఈక్వల్ టు సెన్సెస్. ద సెన్సెస్ వాట్ వీ హ్యావ్, ఫైవ్ సెన్సెస్, పంచేంద్రియ, కర్మేంద్రియ, జ్ఞానేంద్రియ ప్లస్ మనః. వీ కెన్ టేక్ ఇట్ అస్ 11 ఇంద్రియాస్ ఇట్ సెల్ఫ్. మాత్రాః స్పర్శాః, అగైన్ వాట్ ఎవర్ ద స్పర్శ, ద ఫీల్ వాట్ వీ గెట్ అవుట్ ఆఫ్ దీస్, ద కర్మేంద్రియ, జ్ఞానేంద్రియ ప్లస్ మనః, వాట్ ఎవర్ వీ గెట్ ద ఇంద్రియ అండ్ ద స్పర్శాస్, మాత్రా స్పర్శాః, దే విల్ లీడ్ టు వాట్? దే విల్ గివ్ వాట్? దే విల్ ప్రొడ్యూస్ వాట్? శీత ఉష్ణ సుఖ దుఃఖ దాహ. సో దే ఆర్ ప్రొడ్యూసర్స్ ఆఫ్ కోల్డ్ హీట్ ప్లెజర్ పెయిన్ ఆల్ దీస్ ఓన్లీ. అండ్ ఆగమాపాయినః, ఆగమాపాయినః కమ్ అండ్ గో అవే. దే ఆర్ వెరీ వెరీ ట్రాన్సిటరీ. ఆగమాపాయినః కమ్ అండ్ గో. సంయోగ వియోగశీలాః, సంయోగ వియోగశీలాః, సంయోగ వియోగ సంపన్నాః, శీతోష్ణ సుఖ దుఃఖదాః మాత్రాస్పర్శాః, తే అనిత్యాః. అనిత్యాః, దే ఆర్ టెంపరరీ, దే ఆర్ నాట్ పర్మనెంట్. తేన నిత్యాః, తేన సత్యాః ఇత్యపి స్వీకర్తుం శక్యతే. తత్ సత్యం న, సత్యం పరం ధీమహి యదుక్తమస్తి తాదృశ సత్యం న ఏతే. అతః హే భారత తాన్ తితిక్షస్వ. జస్ట్ బేర్ విత్ దెమ్ అండ్ గో త్రూ దెమ్ ఇన్ అ మోషనరీ ఫామ్. ఏవం తత్ర yada when why is Krishna telling this to Arjuna? First, in the first shloka, he tells Ashochan. We have tried to see the step by step upadesha of Krishna. Ashochan anvashochaha. You are crying for those people who are not fit to be cried. Why Arjuna? Why are they not fit to be cried? Why Krishna? Why are they not fit to be cried? Because they are always there. So why are you crying for things which are always there? That is shloka number 12. How do you say they are always there and what is the difference Krishna if you again ask? Then again he is telling shloka number 13. Oh Arjuna, see this is Deha and this is Dehi. Therefore Dehi is always there. Deha is always not there. So don't see the Deha. Then coming to that, if you are starting to see the Deha, how do you know that I am seeing the Deha? Again, if Arjuna asks, that is where he comes to shloka number 14. So this is the step by step upadesha if we see it. So in shloka number 14, he is asking, how do you know I am seeing the Deha? Of course you are seeing the Deha, because only Deha has these matras parshaha. Deha has indriyas, and indriya have these matras parshaha, that is the object of senses and the contact and the feelings associated with them. And these matras parshaha, they will give you what? They will either give you shita or they'll give you ushna, they'll give you sukha, dukha, mana, apamana, labha, alabha, shatru, mitra. Therefore all these dvandva, later on we see the word dvandvatitaha. Like gunatitaha, dvandvatitaha, all these dvandvas, the duality which is there, we have to cross through that duality. When we go up beyond these dvandvatitaha, when we become beyond these dvandva and beyond this dvandvatitaha, we go in the path of jnana marga. Therefore coming back, matras parshaha will give us shita, ushna, sukha, dukha. And what are these kind of matras parshaha? They are agamapayinaha. Agamapayinaha, they are like fleeting. They come, they go, they just come and go. They just happen sometimes. And whatever sukha we are having now, it goes off. Whatever dukkha we are having now, that also goes off. So everything is temporary. Evam tatra agamapayinaha santi anityaha santi yete tadartham. Therefore, tan titikshasva. Just endure them, or once you start enduring them, slowly start ignoring them and then start avoiding them and you go beyond them. So titikshasva, we will see, first is bear them. Titiksha will be to endure, to bear. Then you start ignoring them, totally avoid them and go beyond this matras parshaha. This is the step-by-step upadesha which slowly Krishna is taking Arjuna through. Pashyamaha, he Kaunteya, Kunti Putra, son of Kunti, Akarantha Pullinga Sambodhana Prathamaika Vachanam, Matrasparshaha, Vishaya Samyogaha Yadasti, Tatra Matrasparshaha, we will see that also in the Vishesha Amsha, Matraha Ittukte, Miyante, Miyante, Nyayante, Vishayaha, Abhihi, Iti, Matraha, Matraha, Ityukte, Miyante, Miyante, Nyayante, it can be known. Vishayaha, those kind of objects through which we are able to sense things around us, they are called as sense objects, Indriyaha. Evam, Miyante, Jnayante, Vishayaha, Abhihi, Iti, Matraha. Definition of Matraha. Indriya Vrittayaha, Matraha. Tasam Sparshaha, Vishayaihi, Sambandaha, Ye Santi, Te, Shita, Ushnadi Pradaha, Bhavanti. Te Tu, Agamapayitvat, Anityaha, Astiraha, Santi. Ataha, Tan, Titikshasva, Sahasva. Tan sahasva iti sahavadati. Eva matras parshaha, vishaya samyogaha, akaranta pullinga prathama bahuvachanam tu avyam, shitoshta sukadukkadaha, shitam ushnam sukham dukham, ityadin ye dadati, dadati, te shitoshna sukadukkadaha, akaranta pullinga prathama bahuvachanam, agamapayinaha. Agamapayinaha, samyoga, viyoga, shilaha, samyoga, viyoga, sampannaha, samyoga, viyoga, yuktaha, सन्ति आगमापायिन् शब्दः नकारान्त पुल्लिङ्ग प्रथमाविभक्ति बहुवचनम् पायिन् पायिनौ पायिनः प्रथमा विभक्ति बहुवचनम् अनित्याः अकारान्त पुल्लिङ्ग प्रथमा बहुवचनम् नित्यः नित्यौ नित्याः अनित्याः हे भारत हे भरत कुलोद्भव हे भरत कुल संबंधी जन्म स्वीकृतवान हे पुरुष हे भरत कुलोद्भव हे अर्जुन अकारांत पुल्लिंग संबोधन प्रथमेक वचनम तान 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 तद शब्दः दकारांत सर्वनाम पुल्लिंग द्वितीय विभक्ति बहुवचनम तान तितिक्षस्व तितिक्षस्व इफिसी धातु इस तिज निशाने क्षमायांच तिज निशाने क्षमायांच अगेन प्रथम गणीय भ्वादि गणीय इट इज अ नित्य सन्नंत शब्द दट इज पेक्युलरिटी अबाउट दिस इट इज अ नित्य सन्नंत शब्द अगेन सन्नंत फॉर्म्स वी हैव सीन इन द पास्ट देयरफॉर तितिक्षताम तितिक्षेताम द हियर इट इज द लोट फॉर्म विच इज बीइंग यूज्ड तितिक्षताम तितिक्षेताम तितिक्षन्ताम तितिक्षस्व त्वं तितिक्षस्व मध्यम पुरुष एकवचनम तितिक्षस्व तितिक्षेथाम तितिक्षध्वं तितिक्षै तितिक्षावहै तितिक्षामहि लोट आत्मनेपदी मध्यम पुरुष एकवचनम त्वं तितिक्षस्व नित्य सन्नंत तिज निशाने क्षमायां भ्वादिगणीयः तत्र स्वार्थे तत्र सन्नंतः अस्ति तितिक्षस्व त्वं तितिक्षस्व एवं तात्पर्यं पश्यामः हे कौन्तेय स्रक् चंदन वनितादीनां विषयाणां संबंधाः कदाचित् शीतं जनयति कदाचित् उष्णं जनयति एवं पश्यामश्चेत् कदाचित् सुखं कदाचित् दुःखमेव जनयति अगेन द सेम सेंस ऑब्जेक्ट्स कैन समटाइम्स गिव अस सुख कैन समटाइम्स गिव अस दुख इट इज क्वाइट अगेन सेल्फ एक्सप्लेनेटरी एंड ऑल ऑफ अस हैव एक्सपीरियंस्ड द सेम सेंस ऑब्जेक्ट समटाइम्स गिव्स अस सुख समटाइम्स गिव्स अस दुख और समटाइम्स इज इनडिफरेंट वी बिकम इनडिफरेंट टू इट द सेम फॉर एग्जाम्पल वी लेट अस टेक द सिंपल एग्जाम्पल ऑफ अ कॉफी sometimes in the morning again tatra that coffee which gives us sukha apparent sukha which is there later on when we are like when we have a cold or when we have a bitter mouthed experience when we are not well tadrsha samaye tat dukham janayati it tastes very very bitter and again some of the vedanta conceptual commentators give the example of the same coffee without which a person we have seen lot of people even when they do the tarpana to their ancestors even those days when apparent as per shastras they are not supposed to have anything even those days they are not able to perform that tarpana without having a coffee that kind of bhogya vastu coffee when if there is a shoka touched it should not that situation should not arise if it arises that kind of a situation wherein putra viyoga kale यदि तत्र पुत्रादि वियोग कालमस्ति बंधु वियोग कालमस्ति चेत वेन पुत्र इज ऑन द डेथ बेड एंड तादृश काले यदि समबडी ऑफर्स अ कॉफी दट सेम कॉफी इज इनडिफरेंट आर गिव्स हिम दुख he goes away from it he is not able to enjoy that so the same simple concept if we take therefore the same vastu can give us dukha or sukha evam srakchandana vanitaadinam vishayanam sambandaha kadachit sheetam janayati kadachit tadeva vastuni taanyeva vastuni ushnam janayati kadachit sukham janayati kadachit dukham janayati kadachit te bhavanti kadachit apagacchanti ataha eva te sarve anityaah tasmat तान सहस्व मोहम मा भज देयरफॉर सिमिलरली टू ऑल दीज थिंग्स दीज देह ऑल दीज पीपल आर सीइंग इन फ्रंट ऑफ यू ते सर्वे अनित्याः दे आर नॉट गोइंग दे आर ओनली टेम्पररी देयरफॉर यू आर एज अ बॉडी व्हाट एवर एक्टिविटी यू आर गोइंग टू डू अगेन यू आर डूइंग इट फ्रॉम अ बॉडी टू बॉडी ओनली यू कैन नेवर डू एनीथिंग यू कैन नेवर किल द सोल विच इज व्हाट ही गोज ऑन लेटर ऑन ही टॉक्स अबाउट न जायते म्रियते वा कदाचित ही गोज ऑन टू दिस फ्रॉम दिस स्टेप लेटर ऑन पश्यामः तत्र व्याकरण भागं पश्यामः मात्रास्पर्शास्तु मात्रास्पर्शाः तु विसर्गसकारादेश आगमापायिनः अनित्याः आगमापायिनो नित्याः विसर्गसकाररेफ उकारगुणपूररूपसन्धयः भविष्यन्ति अनित्याः तान् विसर्गसकारादेश तान् स्थितिक्स्व रुत्वं भवति अनुस्वार आगमः विसर्ग सत्वं भवति अनन्तरं मात्रास्पर्शाः षष्टितत्पुरुष शीतं च तत् उष्णं च शीतोष्णं द्वन्द्वसमासः सुखं च तत् दुःखं च नो चेत् सुखं च दुःखं च सुखदुःखं सुख ते तत्र सुखदुःखं तत्ते तानि ते सुखदुःखे द्वन्द्वसमासः शीतं च उष्णं च शीतोष्णं द्वन्द्वसमासः शीतोष्णं च सुखदुःखे च शीतोष्णसुखदुःखानि द्वन्द्वसमासः समाहारद्वन्द्वः शीतोष्णसुखदुःखानि ददाति इति शीतोष्णसुखदुःखदाः दुःखानि अस्ति ये ददति अस्ति ददाति दत्तः ददति बहुवचनं शीतोष्णसुखदुःखानि ददति इति शीतोष्णसुखदुःखदाः उपपदसमासश्च अनित्याः न नित्याः अनित्याः नैतत्पुरुषसमासः स्पर्शाः स्पृश् प्लस् घञ् भावे रूपे यदि वयं स्वीकुर्मश्चेत् तत्र स्पर्शाः स्प्रष्टुं योग्याः स्पर्शाः स्प्रष्टुम् अर्हाः स्पर्शाः इति स्वीकर्तुं शक्यते कृदन्त पदं तत्र स्पृश् घञ् प्रत्ययः अस्ति तितिक्षस्व तत्र सन्नन्तशब्दः तिज् धातुः सन्नन्तप्रयोगः लोट् मध्यमपुरुष एकवचनं तितिक्षस्व अत्रैव यदि पश्यामश्चेत् शीत उष्ण आर् नाट् नेसेसरिली हाट् अण्ड् कोल्ड् इट् आल्सो मीन्स् फेवरबल् अन्फेवरबल् डिसैरबल् अन्डिसैरबल् एक्स्पेक्टेड् अन्एक्स्पेक्टेड् केन् बि टेकन् इन् वेरियस् वेस् शीत उष्ण सुखदुःखदाः एवं तत्र इट् इस् टेकन् एस् वन् काम्पौण्टेड् वर्ड् शीत अण्ड् उष्ण डस् नाट् टेक्निकली मीन्स् सम्थिङ्ग् विच् इस् गोयिङ्ग् टु गिव् अस् हाट् आर् कोल्ड् टेम्परेचर् इट् डस् नाट् डेसिग्नेट् द टेम्परेचर् आस्पेक्ट् आफ् इट् इट् डिनोट्स् द फीलिङ्ग् आस्पेक्ट् आफ् इट् एस् टु वाट् गिव्स् हेपिनेस् अण्ड् वाट् गिव्स् सारो फेवरबल् अन्फेवरबल् एवम् इष्टवियोग संयोगः यद्भवति मात्राः अस्माभिः द्रष्टम् वि हव् आलरेडी सीन् दिस् मीयन्ते ज्ञायन्ते नाट् ज्ञायन्ते ज्ञायन्ते विषयाः आभिः इति मात्राः इन्द्रवृत्तयः यत्सन्ति इन्द्रवृत्तयः द आक्टिविटि आर् द इन्द्रवृत्ति यदस्ति आक्टिविटि आफ् इन्द्रिय विच् इस् देर् इन्द्रवृत्तयः यत्सन्ति ते एव मात्राः द आक्टिविटीस् आफ् इन्द्रिय केन् बि टेकन् एस् मात्राः मात्रास्पर्शाः एकवारं क्विक्लि श्लोकं पश्यामः मात्रास्पर्शाः हे कौन्तेय शीतोष्णसुखदुःखदाः आगमापायिनः अनित्याः भविष्यन्ति त्री अड्जेक्टिव्स् टु मात्रास्पर्शाः सिम्पल् टू सेण्टेन्सस् हे कौन्तेय दीस् मात्रास्पर्शस् आर् शीतोष्णसुखदुःखदाः दे आर् आगमापायिनः दे आर् अनित्याः देर् फोर् हे भारत तान् तितिक्षस्व एण्ड्यूर् देम् स्टार्ट् अवाय्डिङ्ग् देम् गो बियाण्ड् देम् तावदेव सरलार्थः Hope we are fine with that. Agre gachhamah, sloka number 15. We will just quickly see the introduction to this. Again, the word titiksha, Vedantapara chhatraha, tatra Vedantapara janaha santi. Titiksha, again we have sadhana chatushtayam for a sadhaka. We have four sadhana chatushtayam. We will try to see that in detail in the coming class. First is the Nityanitya, Vastu Viveka, then we have the Vairagyam, then in that we have Tatra Shamadi Shad, Tatra Shad Gunaha, or Shamadi Shatkam, Yadasti Tadasti, in the Shamadi Shatkam, we have various qualities which are required for a sadhaka. We will try to make one slide on what are these in detail. So that we can understand what are the words Shama, Dama, Uparati, Titiksha, Shraddha, Samadhana. So the Shamadhi, Shatka Sampatti, what has been told, we will try to see that in detail again. Because if we see the Brahma Sutra Edi Pashyamaschete, Tritiya Adhyaye, the third Adhyaya, fourth Sutra, fourth Bhaga and the 27th Sutra, there it talks about Shama, Damadi, Upetaha, Syat. पुरुषः यः कोऽपि अस्ति शम दमादि उपेतः स्यात् वेन् वि से शम दमादि उपेतः इट् इन्क्लूड्स् तितिक्षा इन् दट् So let me not confuse with too many technical words. We will, in the coming class, we will try to see all these technical words, what do they mean, and how, on a step by step basis, how we have to go through all these words. Just introducing shloka number 15 for us to just think over. ఏకవారం శ్లోకం వదామి సర్వే అనువదంతు కర్తృకర్మ క్రియాన్వేషణం కృత్వా అద్య విరమామః యం హి న వ్యథయంత్యేతే పురుషం పురుషర్షభ సమదుఃఖ సుఖం ధీరం సోమృతత్వాయ కల్పతే. శ్లోకం ఏకవారం పఠంతు. యం హి న వ్యథయంత్యేతే పురుషం పురుషర్షభ సమదుఃఖ సుఖం ధీరం సోమృతత్వాయ కల్పతే. పదచ్ఛేదం పశ్యంతు. కర్తృకర్మ క్రియాన్వేషణం కుర్మః. అగ్రే యదా సమయః లభ్యతే, whenever we have time, we have a weekend also, let us try to see the step by step analysis of shloka number 11, 12, 13, 14, 15. Meanwhile, we will also send the notes, see the linkage between these shlokas and how Krishna slowly takes Arjuna in a very very nice, he takes him, handholds him like a child, and he takes him in this path. పదచ్ఛేదం యం హి న వ్యథయంతి ఏతే పురుషం పురుషర్షభ సమదుఃఖ సుఖం ధీరం సహ అమృతత్వాయ కల్పతే. కర్తృకర్మక్రియ ఏతేన వ్యథయంతి సహ అమృతత్వాయ కల్పతే. సమ్యక్, వెరీ గుడ్, సమ్యక్ అస్తి. ఏతే న వ్యథయంతి, హే పురుషర్షభ, సమదుఃఖ సుఖం ధీరం యం పురుషం, ఏతేన వ్యథయంతి సహ పురుష సహ ధీర అమృతత్వాయ కల్పతే. సమ్యక్ అస్తి, వెరీ గుడ్. పశ్యామః ఏకవారం. హే పురుషర్షభ, ఏతే మాత్రాస్పర్శాః యం సమదుఃఖ సుఖం ధీరం పురుషం న వ్యథయంతి న పీడయంతి సహ అమృతత్వాయ కల్పతే. అగైన్ స్టెప్ బై స్టెప్ యు ఆర్ సీయింగ్. ఇఫ్ అగైన్ హీ ఆస్క్స్, అర్జున ఆస్క్స్, ఓ అర్జున్, ఓ కృష్ణ, హౌ డు యు నో దట్ ఐఎమ్ సీయింగ్ ద దేహ? హీ సేస్, బాస్, యు ఆర్ సీయింగ్ ద దేహ, దేర్ ఫోర్ యు ఆర్ గెటింగ్ సమదుఃఖ సుఖ అండ్ ఆల్, యు ఆర్ గెటింగ్ విషాద. దెన్ హీ టెల్స్, ఓకే, ఇఫ్ ఐ బికమ్ ధీర, వాట్ విల్ ఐ గెట్? What am I going to get? What will happen to me if I become a dhira? Again, if Arjuna asks, then Krishna replies to that. Therefore, he tells the shloka, Hey Purusharshaba, Yete Matrasparshaha Yam Purusham Samadukha Sukham Dhiram Purusham Vyathayanti. Those whom these do not affect, that person, Saha Purushaha Dhiraha Saha Panditaha Yaha Vartate Saha Amritatvaya Kalpate, he becomes an eligible candidate for Mukti. He is fit, he is eligible, he is a desired applicant to go towards Mukti, Mokshaya, Amritatvaya, Muktaye Saha Yogyaha Bhavati. He becomes an eligible candidate, which is what he tries to tell from this shloka. Ye Purusharshabha, Yete Matrasparshaha, Sheetoshna Sukha Dukkhadaha, Agamapayinaha, Anityaha, Ye Sparshaha Santi, Yete Matrasparshaha, Yam ధీరం పురుషం న బాధంతే న పీడయంతి తత్ర సహ పురుషః సహ ధీరః అమృతత్వాయ కల్పతే. హీ గోస్ టువర్డ్స్ మోక్ష ముక్తి. సహ ముక్తయే యోగ్యః భవతి ఇతి సహ వదతి ఇతి కృష్ణః అర్జునం ప్రతి వదతి. తత్ర డీటెయిల్స్ ఆఫ్ దిస్ శ్లోక అండ్ ద అదర్ టర్మ్స్ విచ్ వి హావ్ యూస్డ్ ఇన్ దిస్ డే, వి విల్ ట్రై టు సీ ఇట్ ఇన్ ద కమింగ్ క్లాస్. ధన్యవాదాః, థ్యాంక్స్ ఫర్ అటెండింగ్. ఇన్ కేస్ దిస్ ఇస్ ద స్పీడ్ ఇస్ అ లిటిల్ బిట్ మోర్ అగైన్ బికాస్ దెర్ ఆర్ సో మెనీ కాన్సెప్ట్స్ టు బీ కవర్డ్. ద శ్లోకార్థ ఇస్ వెరీ సింపుల్, but the concepts to be covered, to be understood are more. So therefore, in case it is a little bit fast, let us know. We will always reduce the speed and we can explain in detail also. Like we said, the main purpose is to get Sanskrit. Along with that, also try to introduce ourselves to Bhagavad Gita. Slowly we will try to understand. As we go through the shlokas by ourselves, we get newer meanings and we go through these. धन्यवादाः. थैंक्स फॉर अटेंडिंग. आगामी कक्षायां पुनर्मिलामः. तावत् पर्यन्तं यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूतिर्ध्रुवानीतिर्मतिर्ममाम् गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो. सर्वेभ्यः राम राम राम.